गुणो विभुर विजयते तराम आत्मनेपदि प्रकरणे वयं स्मः तत्र भावकर्मणोः इति द्वितीयं अनुदात्तं आत्मनेपदम् इति प्रथमं सूत्रं तदनन्तरं भावकर्मणोः इति द्वितीयं सूत्रं भावकर्मणोः इत्यत्र कर्म इति शब्दस्य कः अर्थः इत्युक्ते कर्म इत्यस्य कर्मकारकम् इति स्वीकर्तव्यम् एवं भावः भावः नाम किम् इत्युक्ते भावः भावनाक्रिया इति तत्र भावो नाम धात्वर्थः इति महाभाष्ये अस्ति अतः यदा भावे कर्मणि च यो लकारः तस्य आत्मनेपदं भवति इति अर्थः बभूवे अनुबभूवे इति उदाहरणम् इदानीं बभूवे इति शब्दस्य प्रक्रिया तु इदानीं नोच्यते यतः तत् भावकर्मप्रकरणम् इति अस्ति तस्मिन् प्रकरणे उच्यते बभूवे इति कथम् आगच्छति इत्यादिकम् इदानीम् अनुबभूवे इत्यपि स एव भवति इदानीं कर्तरिकर्म व्यतिहारे इति तृतीयं सूत्रं विद्यते अत्र अस्माभिः कर्मणः व्यतिहारः कर्मव्यतिहारः तस्मिन् कर्मव्यतिहारे इति समासच्छेदः कर्तरि इति सप्तम्यन्तं पदं सप्तमी एकवचनं कर्मव्यतिहारे इत्यपि सप्तमी एकवचनं पदं विपदात्मकं सूत्रम् अत्र अनुदात्तगीतात्मने प्रथमाध्यायस्य तृतीयपादे अस्ति अनुदात्तगीतात्मनेपदम् इत्यस्मात् आत्मनेपदम् इति इत्यस्य अनुवृत्तिः एवं कर्मव्यतिहारे अत्र कर्म इत्युक्ते क्रिया इति स्वीकर्तव्यं न तु कर्मकारकम् इति क्रियाविनिमये द्योत्ये कर्तरि आत्मनेपदं भवति कर्तरि भवति आत्मनेपदं भवति इदानीम् अस्माकं प्रश्नः अत्र व्यतिलुनीते इति उदाहरणं दत्तमस्ति अत्र लूयि धातुः अस्ति लूयि लवने इति धातुः लूयि छेदने लूयि छेदने इति धातुः लूयि धातुः ञित् अस्ति चकार पञ्चमवर्णः ञित् च च ज ज न ञित् अस्ति एवं लूयि धातुः ञित् अस्ति अतः तस्य स्वरितगितकर्तृभिप्राये क्रियाफले इत्यनेन सूत्रेण किं भवति उभयपदित्वं भवति उभयपदित्वं यदा आगच्छति आत्मनेपदं स्वतः सिद्धं किमर्थम् इदं सूत्रम् इति प्रश्ने सति उच्यते स्वरितगीतकर्तृभिप्राये क्रियाफले इत्यस्मात् सूत्रात् परस्मैपदमपि प्राप्तम् आत्मनेपदमपि प्राप्तम् इदानीं तत्र सङ्कोचः क्रियते एवं न एतत् विशेष स्थलमस्ति अतः यदा क्रियाविनिमयः यदा द्योतते तदा अस्माभिः आत्मनेपदम् एव करणीयम् न तु परस्मैपदम् इति तत्र इदानीं प्रश्नः उदेति क्रियाविनिमयं नाम किम् तदेव अत्र उच्यते एकस्य कार्यम् अन्यः करोति व्यतिनुनीते लूयि छेदने इत्युक्ते छेदनं नाम वैदीकरणं वा कर्तनं वा किमपि छेदनम् अन्यस्य कार्यं यदि अन्यः करोति इदानीं सेवकस्य अन्यजनस्य कार्यं शूद्रादियोगं सस्यादि लवणं ब्राह्मणः करोति इति अधः बालमनोरमायं दत्तम् एतादृशस्थलेषु कर्मव्यतिहारः भवति व्यतिहारः विनिमयः अत्र द्वितीयस्थलमपि वर्तते तत्र वार्तिकारः किं वदति वार्तिकारः महाभाष्ये कैयटः किं वदति, परस्परकरणमपि कर्मव्यतिहारं भवितुमर्हति. परस्परकरणं नाम किं? सम्प्रहन्ते राजानः इति. इदानीं राजानः युद्धे युद्धं कुर्वन्ति, एकः प्रहरति अन्यः अपि प्रहरति, एवं परस्परं ते प्रहरन्ति. सम्प्रहरन्ते राजानः इत्यत्रापि यद्यपि अत्र एकस्य कार्यम् अन्यः करोति इति तादृशभावः नास्ति, तथापि अत्रापि कर्मव्यतिहारः भवति. कर्मव्यतिहारः यदा भवति तत्र नियमः अस्ति, केवलम् आत्मनेपदि प्रयोक्तव्यम् इति. इदानीं इदानीं व्यतिलुनि ते इत्यस्य रूपं कथं भवति? लुञ् छेदने इति धातुः कस्य गणस्य धातुः? कृपया अन्वेषणं कृत्वा वदतु. लुञ् छेदने इति धातुः कस्मिन् गणे अस्ति? क्रयादिगणे अस्ति. तत्र क्रयादिगणे पूयि पवने इत्यपि अस्ति. इदानीं पुवादीनां ह्रस्वः इति सूत्रं स्वीकरोतु. क्रियादिगणे वदामि, यत्र पेज् नम्बर् न पृष्ट 1482 धातुसङ्ख्या अस्तु. तत् तेन आधारेणापि अन्वेष्टुं शक्यते. सम्यक् श्रूयते. वादीनां ह्रस्वः पुनाति पुनीते इति अस्ति. तत्र पेज् नम्बर् 378 सिद्धान्तकौमुदी तृतीयभागः. वादीनां ह्रस्वः इति सूत्रं विद्यते. तत्र वादीनां ह्रस्वः, वादिः कश्चन गणः. क्षितिपरे ह्रस्वः भवति. पुनाति इत्युक्ते पूयि पवने इति दीर्घः आसीत् किल, प्रकृतिदीर्घः पूयि इति आसीत्. इदानीं कथं ह्रस्वः इत्युक्ते त्वादीनां ह्रस्वः भवति. पुनाति पुनीते, एवमेव लुनाति लुनीते अस्ति. त्वादिगणे के के धातवः सन्ति इति द्रष्टव्यम्. तत्र गणपाठः द्रष्टव्यः. तत्र गणपाठे यदि अस्ति चेत् अहं वदामि त्वादिगणे पूय लूय स्त्री कृय व्रि इति चतुर्विंशति धातवः सन्ति. त्वादिगणे लूय अपि अस्ति. इदानीं पुनीते इत्यस्य यथा अत्र क्रियादिगणस्य विकरणप्रत्ययः कः? क्रियादिगणे प्रक्रिया कथं भवति? क्रियादिगणस्य विकरणप्रत्ययः कः? क्रियादिगणे क्रियादिभ्यश्ना इति अस्ति सूत्रम्. क्रियादिभ्यश्ना प्रथमसूत्रं 376. क्रियादिभ्यश्ना श्ना इत्यस्य षित् अस्ति श्ना, अतः ना इति भवति. ना इति विकरणप्रत्ययः, ना इति अवशिष्यते. एवं पूय पवने इत्यत्र पू ना ति एवमेव पू ना ति. पुनीते इत्यत्रापि इदानीं पुनीते इति कथम् इति द्रष्टव्यम्. पुनीते इति कथम् इत्युक्ते ईहल्यगोः इति सूत्रमस्ति प्रायः. कुत्र अस्ति इति न जानामि. ईहल् अगोः पुनाति इत्यस्य पुनाति पुनीतः पुनन्ति एवं भवति. आत्मनेपदिनि पुनीते पुनाते पुनते एवं भवति. पुनीते पुनाते पुनते. इदानीं व्यति कर्मव्यतिहारे द्योत्ये व्यति लुनीते एवं लूयि धातु इत्यस्य लुनीते व्यति लुनीते लुनीते व्यति लुनाते व्यति लुनते इति लट्लकारस्य रूपं रूपाणि एवं भवन्ति. एवं किं भवति? व्यतिलुनीते व्यति व्यतिलुनीते किं भवति? व्यतिलुनीते किं भवति? व्यतिलुनीते मया पूर्वमुक्तं तदेव वक्तव्यम्. व्यतिलुनीते व्यतिलुनाते व्यतिलुनते इति रूपम्. व्यतिलुनाते व्यतिलुनते इति रूपम्. अवगतं वा? इदानीं किं भवत्? एवं यथा पूय पवने इत्यत्र यथा रूपसिद्धि यथा प्रक्रिया तथैव अत्र पुनीते इत्यत्रापि यथा अस्ति तथैव. इदानीं पुनीते इत्यत्र का प्रक्रिया? నా వికర్ణ ప్రత్యయ అస్తి పూ అస్తి ప్రాదీనాం హ్రస్వః ఇత్యనేన పూ తది లూ లూ అపి లూ ఇతి భవతి ఏవం లూ నా తి తే ఇత్యత్ర లునీతే ఈహల్యఘోః ఇతి సూత్రమస్తి తత్ కిమపి ద్రష్టుం శక్యతే వా ఈహల్యఘోః టూ ఫోర్ నైన్ సెవెన్ ఈహల్యగోహో ఇత్యస్య సూత్రార్థకః సమ్యగస్తి వా ఇత్య అహమపి న జానామి. కిముక్తం తత్ర శారద నిమీతే ఇతి యత ఏవమేవ స్నాభ్యస్తయో ఏవం కిం భవతి స్నాభ్యస్తయో రాతః స్నా అభ్యస్తయః అభ్యస్తయోః అత్ర స్నా అస్తి స్నా ఇత్యస్య నాస్తి ఈ ఆతః ఈత్ స్యాత్ ఆతః ఈత్ స్యాత్ ఏవం నా ఆతః ఈత్ స్యాత్ సారదాత్కే కింసి హలి నతు గుసంజ్ఞస్కస్య అత్ర దాప్ ఇత్యాది ధాతుః నాస్తి దాదాద్వదాప్యేవ గుసంజ్ఞాస్తి అతః ఇదానీం పునీతే ఇతి రూపసిద్ధి అభవత్. ఏమేవ వ్యతిలునీతే ఇత్యపి భవతి శ్నసోరల్లోపః వ్యతిస్తే. ఇదానీం శ్నసోరల్లోపః ఇతి సూత్రం కిమర్థం ఉచ్యతే అత్ర ఇత్యుక్తే అత్ర కౌముదీకారః కిం దర్శయితుం ఇచ్చతి యథా యథా దశలకారేషు ప్రయోగః భవతి తథా ఏవ వ్యతిలునీతే ఇత్యస్యాపి లట్లకారః లిట్లకారః సర్వం భవతి. లట్లకారే వ్యతిలునీతే ఇతి భవతి, లిట్లకారే వ్యతిలులువే ఇతి భవతి, ఏవం లుట్లకారే వ్యతిలవిత ఇతి భవతి. తత్ర లృట్లకారే వ్యతిలవిష్యతే ఇతి భవతి, లోట్లకారే వ్యతులినీతామ్ ఇతి భవతి, లంగ్లకారే వ్యత్యలునీత ఇతి భవతి, విధిలింగ్లకారే వ్యతిలునీత ఇతి భవతి, ఆశీర్లింగ్లకారే వ్యతిలవిశీష్ట ఇతి భవతి, లుంగ్లకారే వ్యత్యలవిష్ట ఇతి భవతి, లృంగ్లకారే వ్యత్యలవిష్యత ఇతి భవతి. ఏవం దశలకారేషు అపి ప్రయోగః అవశ్యం భవతి ఇతి దర్శయితుమేవ అత్ర కౌముదీకారః లిఖితవాన్. అత్ర ఇదానీ అస్ ధాతు అస్స భువి ధాతు అస్ధాతోః ఉదాహరణం అస్తి. అస్ధాతోః ఉదాహరణం యతిస్తే ఇతి. శ్నసోరల్లోపః ఇత్యస్య అస్ధాతోః శ్నవికరణ, యది శ్నవికరణ వికరణప్రత్యయ భవతి తదా అస్ధాతోః అకారస్య లోపః భవతి. సారధాతుకే పరే ఇదానీం कितनीत श्नसोर अल्लोपः इत्यस्य सूत्रार्थं पश्यामः वयम्। कृपया श्नसोर अल्लोपः स्वीकरोतु। विजयलक्ष्मी पठन कृपया पठन्तु। श्नसोरल्लोपः सार्वधातुकं भवेत्, कित्कित् प्रत्ययः भवेत्, अस् धातुः भवेत्, अकारस्य लोपः भवति, तदा अकारस्य लोपः भवति। आत्मनेपदी किं भवति? सार्वधातुकमपित् इत्यनेन नित्वद्भावः भवति। अतः नित्वद्भावः आत्मनेपद्यां भवति। अतः अत्र श्नसोरल्लोपः इत्यस्य सूत्रस्य प्रवृत्तिः। व्यतिस्ते इत्यत्र वि पूर्वक अति धातोः अस्धातुः। कर्तरि कर्म व्यतिहारे इत्यनेन सूत्रेण आत्मनेपदम्। तेन त इति प्रत्ययः। इदानीम् अत्र अत्र कर्तरि शप् इति भवति, परन्तु अभिप्रवृत्तिभ्यः शपः इति सूत्रेण शपः लुक् भवति। एवं व्यति अस्त इति भवति। इदानीं श्नसोरल्लोपः इति सूत्रमागच्छति, तदा अकारस्य लोपः भवति। एवं किं का स्थितिः इदानीं? व्यति प्रथमं, ततः पूर्वं व्यति अस् त, इदानीम् अकारलोपः व्यति स् त। इदानीं टितात्मनेपदानां टेरे इति कृत्वा व्यतिस्ते इति भवति। अत्र कर्मव्यतिहारः द्योत्यः द्योतते। कर्मव्यतिहारः नाम एकस्य कार्यम् अन्यः करोति, नो चेत् परस्परं कार्यं कुर्वन्ति। इदमेव कर्मव्यतिहारः इति उच्यते। इदानीं द्वितीयं व्यतिस्ते पुरुषदा व्यतिस्ते। इदानीं व्यतिशाते व्यतिशाते इत्यत्र कर्तरि कर्म व्यतिहारे इत्यनेन आत्मनेपदम्। व्यतिस्ते व्यतिशाते व्यतिशते, अत्र द्विवचनप्रत्ययः कः? न, द्विवचनप्रत्ययः कः? आता त आताम् झ आताम्। एवं व्यति अस् आताम् इति अभवत्। तत्र अधिप्रवृत्तिभ्यः शपः शपो लुक् तत्सर्वं भवति। अनन्तरं श्नसोरल्लोपः इत्यनेन अकारस्य लोपः। एवं व्यति स् आताम् इति अभवत्। तदनन्तरम् ईकारस्य परतः उपसर्गात् प्रादुर्भाव्याम् अस्तिचरः एतस्मात् सूत्रात् अच्परक अत्र शत अस अस्ति किल अस्मद्ये सकारः अस्ति सकारः अच्परकः एवम् उपसर्गात् प्रादुर्भ्याम् अस्तिर्यच्परः नाम अस्तिर् अस्तिः अच्परः इति अच्परक सकारस्य षत्वं भवति एवं व्यति अश् आताम् व्यति अश् आते इति भवति आताम् पितात्मनेपदाम्पटेरे आते भवति व्यति व्यतिशाते इति भवति अवगतं वा पुनः वदामि व्यति अस् धातुः आताम् श्नसोरल्लोपः इति धातोः अकारस्य व्यति अस् आतामिति भवति श्नसोरल्लोपः इत्यनेन अकारस्य लोपः व्यतिस् आताम् इति स्थिते उपसर्गात् प्रादुर्भ्याम् अस्ति यत्परः इत्यनेन सूत्रेण सकारस्य चत्वं विधीयते तदनन्तरं टितात्मने पदानां टेरे इत्यनेन टि इत्यस्य एत्वं भवति यतिशाते इति रूपसिद्धिः अवगतं वा सम्यक् एवमेव व्यतिशते इति अस्ति व्यतिशते व्यतिशते इत्यत्र बहुवचनरूपम् आत्मनेपदेष्वनतः बहुवचने कः प्रत्ययः तत्र आत्मनेपदेष्वनतः इति झकारस्य स्थाने अकारः अकारः नाम अत् आदेशः इदानीं व्यति अस् अत् अत इति अभवत् व्यति अस् अत श्नसोरल्लोपः इत्यनेन अकारस्य लोपः एवं व्यति स् अत इति अभवत् एवं किञ्चित् परिष्कारं कृत्वा अस्माभिः नारायणाय श्नसोरल्लोपः इत्यनेन धातोः अकारस्य लोपः व्यति स् अत सकारस्य षत्वं व्यतिष् अत प्रादुर्भ्याम् अस्ति यच्परः अत्र अत् आदेशः आत्मनेपदे स्वनतः इति झस्य अर्थादेशः एकवारं वक्तुं शक्यते वा व्यतिशते इत्यत्र कः का प्रक्रिया इति झस्य अर्थादेशः भवति आत्मनेपदे स्वनतः झस्य रन् भवति झोन्तः भवति तत्सर्वं आत्मनेपदे स्वनतः इति समीचीनं व्यतिसे इदानीं मध्योपुरुषे एकवचनं थासस्य इति अस्ति त आताम झ थाह आताम ध्वम एवं व्यति अस था थाह व्यति अस से स्तसोर लोपः अकारस्य लोपः धातु मत इदानीं अत्र अंगभागस्य तासस्योर लोपः इति तदपि लोपः भवति एवं यति यतिसे इत्येव रूपसिद्धि तत्र व्यति अस से इति अस्ति स्नसोर लोपः इत्यनेन अकारस्य लोपः व्यतिस से इति अभवत् इदानीं व्यतिस्त इति अस्ति किल तद् धातुभागः अङ्गभागः अत्र तासस्योर् लोपः इति सकारस्य लोपः एवं यत् किम् अभवत् व्यति व्यतिसे इति अभवत् अवगतं वा एवं व्यतिशाथे व्यतिशाथे इत्यत्र आथाम् प्रत्ययः व्यति अस् आथाम् श्वसोरल्लोपः तदनन्तरम् इकारस्य परतः यः सकारः अस्ति इदानीं व्यति स् इति अस्ति सस्य षत्वं भवति केन सूत्रेण उपसर्गात् प्रादुर्भ्याम् अस्ति यत् परः इत्यनेन टीकात्मने पदानां तेरे व्यतिशाथे इति भवति थाम् इत्यस्य थे इति भवति यति द्वे इत्यत्रापि मध्यमपुरुष एकवचनप्रत्ययः ध्वं ध्वं भवति व्यति अस् ध्वं तदनन्तरं किं भवति श्नसोरल्लोपः तत्र धिच इति लोपः धिच इति एकं सूत्रं वर्तते धिच धिच किं वदति कृपया पठन्तु धिच इति सूत्रार्थः कः इति सूत्रस्य सूत्रार्थः धिच सलोपः स्यात् एवं धादौ धादौ ध्वं ध्वं धादिः धादिः अस्ति अतः लोपवरम् सो यत् धिच धिच इत्यनेन इत्यत्र सकारस्य लोपः धकारादौ प्रत्ययपरे सलोपः स्यात् एवं किम् अवगतम् आकारोऽपि गतः सकारोऽपि गतः एवं व्यतिध्वम् इति स्थितम् टीकात्मने पदात् व्यतिध्वे अवगतं वा इदानीम् अग्रिमरूपं किं व्यतिः वा व्यतिः इत्यत्र उत्तमपुरुषम् उत्तमपुरुष एकवचने प्रत्ययः त आताम् झ था साताम् द्वम् इट् वहि महि इकारः व्यति अस् इ इति भवति श्नसोरल्लोपः टेः एत्वम् टेः एत्वम् नाम ह इति ह हा येति इति सूत्रम् आगच्छति एवं तासस्योः ఏతి పరే ఇదానీ ఏకారః అస్తి ఏతి పరే తాసస్యోః కిం భవతి హ భవతి ఏవం వ్యతిహ వ్యతిహే ఇతి భవతి తితాత్మనే పదానం టేరే ఇత్యనేన ఏత్వం వ్యతిహే ఇతి భవతి ఏమేవ వ్యతిస్వహే వ్యతిస్వహే ఇత్యపి కర్తుం శక్యతే. ఇది తాసస్యోర్ లోపః సూత్ర నంబర్ ఎన్నది తాసస్యో తాసస్యోర్ లోపః ఎంద ఎత్తనాది సూత్రం సొలమ్ బైని సన్స్ 2250 ఒక నిమిషం ఇది టూ వన్ నైన్ వన్ తాసస్త్యోః లోపః ఇతి సూత్రం సాధౌ ప్రత్యయే పదే ఓ తాసస్త్యోః పదచ్ఛేదః ఆవశ్యకం వా? ఓ తత్ శ్లోమస్తి తాసశ్చ అస్తిశ్చ తయోః తాసస్త్యోః తాసశ్చ అస్తిశ్చ తయోః ఇతరేతర ద్వంద్వః తాశ్చ అస్తిశ్చ. తాస్ నామ కిం? తాశ్చ ఇత్యస్య తాసి ప్రత్యయః తాసి ప్రత్యయః అస్ ధాతు అస్ ధాతోః సకారః అస్తి అస్తి నామ అస్ ధాతోః సకారః సకారస్య లోపః భవతి. కదా భవతి? సకారాది ప్రత్యయః ఇది పరే భవతి చేత్. అగ్రిమ రూపం కిమస్తి? యతిరాతే వా? వ్యతిహే వ్యతిస్వహే వ్యతిస్మహే హాయ్ వ్యత్యస్ వ్యత్యసై వ్యత్యాస్త వ్యత్యసై వ్యత్యసై తత్తు లట్లకారః నాస్తి. వ్యతిహై వ్యత్యసై ఇతి కస్య రూపం? లోట్లకారస్య రూపం. లోట్లకారే కిం భవతి? వ్యతిస్తాం వ్యతిశాతాం వ్యతిశతాం వ్యతిస్వ వ్యతిశాతాం వ్యతిధ్వం. ఇదానీం లోట్లకార ఉత్తమ పురుష ఏకవచనే వ్యత్యసై ఇతి భవతి. తస్య రూపం ప్రక్రియ వ్యతి అస్ ఇతి భవతి. ఉత్తమ పురుషే కిం కః ప్రత్యయః? ఈ ఆడుత్తమస్య పిచ్చ ఇతి సూత్రమస్తి. ఏవం ఆట్ ఇత్యస్య పిత్ పిత్ అస్తి. సారధాతుకం అపిత్ ఇత్యనేన అపిత్ అస్తి చేత్ సారధాతుకం భవతి, పిత్ అస్తి చేత్ సారధాతుకం నభవతి. ఏవం విద్వద్భావః నభవతి. అతః యతి అస్ ఆ ఏ ఇతి భవతి. सो यणादि वृद्धि कार्यम क्रियते चेत् यत् लोटिति लोटपि टित्लकारः अस्ति अत्र प्रत्ययः कः उत्तमपुरुषस्य न उत्तमपुरुष एकवचनम् आत्मनेपदी ताहाताम् झा ताहाताम् धम् इत्वहि महिंग इत्वहि महिंग इत्यस्ति किल इदानीं लोट्लकारः क्रियते व्यतिहे इति लट्लकाररूपम् व्यत्यसै इति लोट्लकाररूपम् लोट्लकार उत्तमपुरुषे एकवचनम् अतः ई स्थाने किं भवति व्यति अस् इट् इदानीम् इट् ये भवति टितात्मने पदानां तेरे इत्यनेन किं भवति व्यत्यसै इति भवति श्नसोरल् अकारलोपः कदा भवति श्नसोरल्लोपः एकवारम् अकारलोपः श्नसोरल्लोपः इति सूत्रस्य सूत्रार्थः कः व्यत्यसै सुलभमस्ति अधः पश्यामः किम् अस्ति इति व्यत्यसै लोड् उतोपुरुषे एकवचनम् इति कित्कित् इदानीं कित्कित् नास्ति अत्र अत्र किमर्थं कित् नास्ति इत्युक्ते उत्तमपुरुषस्य आडुत्तमस्य पित् च इत्यनेन पित् आट् इत्यस्य पित्त्वमस्ति सार्वधातुकम् अपित् इत्यनेन निद्वद्भावः यदि पित् अस्ति चेत् निद्वद्भावः न भवति अतः किम् अत्र किम् किं भवति व्यति अस् इत्येव तिष्ठति व्यति अस् इत्यत्र व्यत्यस् इति भवति व्यत्यस् इति भवति तत्र आट् आगमः अस्ति आडुत्तमस्य पिच्च आडुत्तमस्य पिच्च इति आ प्लस् ए ऐ आडुत्तमस्य पिच्च आ प्लस् ए इति न आ प्लस् इ भवति ईकारस्य एकारः टेरयति टितात्रेपदां टेरयति एवम् आ ए इति भवति व्यत्यसै इति भवति तत्र आडुत्तमस्य पिच्च इति सूत्रं कार्यद्वयं करोति प्रथमं पित् करोति आट् आगमः अपि करोति कार्यद्वयम् एतादृशसूत्रं सुबन्तप्रकरणे अपि सूत्राणि सन्ति सुबन्तप्रकरणे अपि एतादृशसूत्राणि सन्ति एवं व्यत्यसै इति लोट लकार उत्तम पुरुष एकवचन रूपम व्यत्यास्त इति अग्रिमम रूपम व्यत्यास्त इति प्रायः लंगलकार रूपम व्यत्यास्त लंगि रूपम इति लिखितम लंगलकार रूपम इदानीं वी अति इति अस्ति तत्र आट आगमः भवति एवं किं भवति व्यत्यास्त इति भवति व्यतिशीत व्यतिशीत इति विधिलिंग लकारस्य रूपम् व्यतिशीत व्यतिशीयाताम् व्यतिशीयाताम् व्यतिशीरन् व्यतिशीष्ठाः व्यतिशीयास्थाम् व्यतिशीध्वम् एवं भवति विधिलिंग लकार रूपम् आत्मनेपदी तद्दर्शयितुं परीक्षायां किम् आगच्छति इति अहं न जानामि परन्तु अत्र कौमुदीकारः कौमुदीकारस्य प्रयत्नः एवमेव सर्वेषां धातूनां कर्मव्यतिहाररूपं भवति सर्वेषां द्विसहस्रधातूनां दशलकारेषु कर्मव्यतिहाररूपं भवति इति कौमुदीकारः दर्शयितुमिच्छति उदाहरणार्थं सः अस् धातुं स्वीकरोति अग्रिम व्यतिराते इत्यत्र राधाने इति धातुं स्वीकरोति व्यतिराते पश्यामः व्यतिराते राधाने इति धातुः तत्र राधाने दाने इति धातुः परस्मैपदी धातुः अस्ति वस्तुतः राति रातः रान्ति इति इदानीम् एकं प्रश्नं पृच्छामि रामः इति पदं क्रियापदं वा नामपदं वा रामः नामपदं कः विभक्तिः कः वचनम् अस्तु समीचीनं परन्तु तस्य अन्यदुत्तरमपि अस्ति रामः इति न रामः रामः इति न नामपदं परन्तु क्रियापदम् इति अहं वदामि राधाने इति धातोः राति रातः रान्ति रासि रातः रात रामी रावः रामः इति परस्मैपदीरूपम् इदानीं कर्मव्यतिहारे किं भवति कर्तृकर्मव्यतिहारे इत्यनेन कर्तरि कर्मव्यतिहारे इति सूत्रेण राधाने इत्यत्र व्यति इत्यनेन तत्र यदा यदा कर्मव्यतिहारः भवति कर्मव्यतिहारः कर्मव्यतिहारं द्योतयितुं सदा व्यति इति प्रत्ययः व्यति इति शब्दसमुदायः युज्यते तत्र எல்லாத்துக்கும் யூஸ் பண்ணலாம் அந்நிய தானம் அந்நிய அது தர்மசாஸ்திரே கிம் அஸ்தி இதானி பிதா கமபி தானம் கர்த்தும் இஷ்டவான் தஸ்ய மரணம் அபூத் पुत्रः किं करोति पितुः दानक्रियां स्मृत्वा सः दानं दास्यति एवं परस्परदानमपि भवति किं भवति तत्र विशेष उत्सवादिकार्येषु तत्र सम्बन्धिनः भवन्ति तत्र विवाहोत्सवः भवति विवाहोत्सवे किं भवति तत्र एकः सम्बन्धी किं करोति न कन्निकादानं न तत्र श्वशुरः श्वश्रूः कन्यायाः श्वशुरः श्वश्रूः वरस्य மரியாதா பதில் மரியாதைன்னு சொல்றாள் தமிழ்ல பதில் மரியாதை எதற்கு பதில் உட்காந்து பதில் இவா அவளுக்கு வேஷ்டி படவ குடிச்சு கொடுப்பா அவா இவாளுக்கு வேஷ்டி படவ வச்சு கொடுப்பா ஏவம் தத்ர ரா தானேதி பரஸ்பர தானம் அப்படி அஸ்தி அத்த ஏதாதிருஷ சம் சம்பவானி ஏதாதிருஷ ஸ்தலேஷு உபயோக்தும் சக்யதே. தத்ர ஞான வெதிராதே வெதிராதே இத்யஸ் அதாதிகணம் அடிப்பிரவத்திபியஷ ஷபஹ வி அதி ரா இத்யஸ்ய லட்லகாரஹ அடிப்பிரவி அதி ஆ ரா ஷப் ரா தே தா தே பவதி ததேவ இதானிம் அத்ர தே இதே அந்தே த ஆதாம் ஜ இதானிம் ஆதாம் இத்யஸ்ய திரட்டவியம் ஆதாம் இத்யத்ர யதிரா ஆதே இதி பவதி ரா ஆதே ராதே சவர்ண தீர்கஹ ஆமா ஏவமேவ பஹுவச்சனே ஜ இதி பவதி ஆத்மனே பதே ஸ்வனதஹ இத்யனேன அதஹ பவதி வ்யதி ரா அத இதி பவதி தரா கிம் பவதி ரா அ வ்யதி ராதே பஹுவச்சனே அவகதம் வா ஆத்மனே பதே ஸ்வனதஹ இத்யனேன அதஹ ரா அதஹ ராதஹ த இத்யஸ்ய தித்தாத்மனே பதானம் தேரே வ்யதி ராதே एवं एकवचने द्विवचने बहुवचने अपि रादाने इति धातोः कर्मव्यतिहारे एकमेव रूपं व्यतिराते 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 इति रूपम् इदानीं भादीप्तौ इति धातोः रूपम् तत्र भाति भातः भान्ति इत्यनेन भादीप्तौ इति धातुः परस्मैपदी अस्ति कर्मव्यतिहारे द्योत्ये किं भवति अस्य आत्मनेपदं भवति व्यतिभाते एवं वि अति भा इत्यस्य त सप लुक टकारस्य येत्वं व्यतिभाते इदानीं त आतां झ इत्यत्रापि व्यतिभाते एवं व्यतिराते इत्यत्र यथा भव आगतं भा रा व्यतिभा आते व्यतिभाते व्यतिभा अत व्यति व्यतिभाते अवगतं वा यथा राते इत्यत्र प्रक्रिया तथैव अत्रापि प्रक्रिया व्यति व्यतिबभे व्यतिबभे इति लिट्लकारे रूपम् आतोलोप इति च इति सूत्रमस्ति तत्र आतोलोप इति च कृपया तत् सूत्रं स्वीकुर्वन्तु व्यति भा व्यति बभे इति लिट्लकार रूपम् अथ द्वित्वादि कार्यं भवति चर्त्वं भवति एवं व्यति बभे इति भवति आतः लोपः स्यात् इत्युक्ते इति च इत्युक्ते उत्तमपुरुष एकवचनरूपम् व्यति बभे इति उत्तमपुरुष एकवचनं रूपम् इति च इति उक्तं किल आतो लोपः एवं व्यति भा इट् इटित्यत्र व्यतिभा इत्यत्र आकारलोपः व्यतिभा इ भा इ इत्यत्र भे तत्र द्वित्वादिकार्यं भवति व्यतिबभे अवगतं वा आतः आतो लोपः स्यात् भा इत्यत्र आत्वमस्ति आकारस्य लोपः आकारात् परतः इट् वहि महिम् इत्यत्र इकारः अस्ति अकार इकारयोः एकारः भा इत्यत्र आकारः गतः एवं भे इति सम्भवत् व्यति बभे बाय तत्र बभे इति कथम् आगतम् इति तत्र द्वित्वादिकार्यं द्रष्टव्यं तदहमपि न जानामि तत् सम्यक् द्रष्टव्यम् पूर्वाभ्यासः अभ्यासे चर्चा हलादिशेषः इत्यादि दृष्ट्वा तद् करणीयम् व्यति बभे इति भवति இல்ல இது ஒண்ணுத்துக்கு மட்டும் அப்படி இருக்கு अस्माभिः किं कर्तव्यम् इत्युक्ते एवं अग्रिमसूत्रतः किमपि प्रक्रिया नास्ति अग्रिमसूत्रतः अर्थम् उच्यते रूपमुच्यते किमपि प्रक्रिया नास्ति अत्र एतादृशप्रक्रिया भवितुम् अर्हति इति कौमुदीकारः द्रष्टुम् इच्छति अतः एवं सर्वाणि रूपाणि दत्तवान् अग्रे सः किमपि न दास्यति एकमेव लट्लकाररूपं दर्शयति सर्वत्र अग्रिमसूत्रतः एव व्यतिगच्छन्ति व्यतिघ्नन्ति अग्रिमसूत्रतः एव केवलं लट्लकाररूपम् अस्माभिः ज्ञातव्यं लट्लकारस्य आत्मनेपदीरूपं ज्ञातव्यम् न लट्लकार एकमरूप तत्र भूयेदिति भू धातोः परस्मैपदी धातोः दशलकारेषु प्रक्रिया सूत्राणि ज्ञातव्यानि एव येद् धातोः अपि प्रक्रिया सूत्राणि ज्ञातव्यानि एव तदनन्तरं केस् टु केस् बेसिस् स्वीकर्तुं शक्यते एतदेव शार्ट्कट् मया वक्तुं शक्यते स्पेशल् सूत्रास् आर् देर् वेन् इट् तदपि अस्ति इदानीं क्र्यादिभ्यश्न इत्यादि सूत्राणि तत्र केवलं विकरणप्रत्ययसूत्राणि तत् सुलभेन ज्ञातुं शक्यते इल्ल गणसूत्र स्पेशल् आगन्दा अपवादं पण्णाद அதாதி கணத்துல அதுக்கு ஸ்பெஷல் சூத்திரம் ஸ்பெஷல் இதுதான் அட்லீஸ்ட் ஒரு ஒரு தாத்து ஒன்னு ஒரு பரஸ்பரி படி தாத்து எக்ஸெப்ட் அதாதி கணா பேலன்ஸ் எல்லாத்துலயும் ஒரு ஒரு தாத்து தெரிஞ்சிருந்தா தசலகாரத்துல தன்னா இருக்கும் அதாதி கணத்துல எல்லா தாத்துமே டிஃபரெண்ட் எக்ஸப்ட் அதாதி எல்லாத்துலயும் கொஞ்சம் கொஞ்சம் தெரிஞ்சிருந்தாக்க இப்ப ஒரு ஒரு தாத்து கிரீனாத்தி தெரிஞ்சிருந்தாக்க இப்ப கிரியாதி கணத்துல இப்ப பூய் தெரிஞ்சிருந்தாக்க லூயி வந்துடும் அந்த மாதிரி ஒரு 19 தாத்து அல்லே உட்கார்றது அந்த மாதிரி உட்காரும் நீங்க ஒன்னும் டென்ஷன் பட்டுக்காதீங்க அடுத்த கிளாஸ் பாருங்க உங்களுக்கு இது இதுல ஒண்ணு ஆத்மே பதம் பிரகரணத்துக்கு ஏன் சார் இப்படி கிளாஸ் எடுத்தேன் அப்படின்னு கேட்பீங்க ஏவமேவ ஆரம்பே கிஞ்சித் கிளேச அது ஒரு பயமும் இல்ல அடுத்த சூத்திரத்திலேருந்து ஒண்ணுமே இல்லை வெறும் லட்லக்கார ரூபம் தான் இருக்கு லட்லக்காரம் தெரிஞ்சுட்டே ஆனோ அது தெரியலன்னா ஒண்ணு முடியாது சாகித்ய போர்ஷன் அது லட்லக்காரத்தை வந்த முடியாது பூ ஏதம் அருந்த முடியாது அதை வச்சுட்டு கொஞ்சம் ஓட்டலாம் அடுத்ததெல்லாம் ரொம்ப வெத்தி கச்சந்தி வெத்தி கிணந்தி எல்லாம் ரொம்ப ஈஸியா இருக்கு அடுத்ததெல்லாம் சும்மா இந்த அச்சத்துல இந்த மாதிரி ஆத்மீய பதம் வரும் அப்படின்னு தான் சொல்லிட்டு போயிருக்கான் ஸோ அடுத்ததுலேருந்து ரொம்ப ஈஸியாக இருக்கும் இன்னைக்கு 11 மணி ஆயிடுச்சு இதோ டைம் இல்லையே உங்களுக்கு போ டைம் இல்லையே 2 மாதம் தானே இருக்கு இப்போ எதை எதுக்குன்னு எக்ஸ்ட்ரா எஃபர்ட் போடுவேன் நான் எக்ஸ்ட்ரா எஃபர்ட் போடுன்னு சுலபமாக சொல்லிடலாம் நான் இப்போ சொல்லு இது ஒரு நிமிஷம் இதை என் ஒரே நிமிஷம் இந்த கிளாஸை என் பண்ணிடுறேன் இந்த ரெக்கார்டிங் வந்து இதில் போடுறேன் அதனால இது என் திஸ் கிளாஸ் ஹியர் அண்ட் தென் டாக் श्रोत्रार्हन्ति च नैर्गुण्यैः महर्षिभिरः दिवं तोष्टूयमानोऽप्यगुणो विभुर्विजयते तराम्